గణపతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణా బ్రహ్మణస్పత ఆన శృణ్వన్నోదిభిస్సీదసాదనం ప్రణో దేవీ సరస్వతీ వాచేభిర్ వాజినీవతీ ధీనామ విత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం. ఓం నమో భగవతే రుద్రాయ. ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః. నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః. యాత ఇషు శివతమా శివం బభూవతే ధనుః. శివాశరవ్యాయాతవతయానో రుద్రమృడయా. యాతే రుద్ర శివా తనోరఘోరా పాపకాశినీ. తయానస్తను వాశంతమయా గిరిశంతాభిజాగశీ. యామిషం గిరిశంత హస్తేభిభర్ష్యస్తవే. శివాం గిరిత్రతాం కురుమాభిగుంసిః పురుషం జగత్. శివేన వచసా త్వా గిరిశాచ్ఛా వదామసి. యథా నః సర్వమిజ్జగత యక్ష్మగుం సుమనా అసత్. అధ్యవోచదివక్తా ప్రథమో దేవ్యోభిషక్. అహేగచ్చ సర్వాన్ జంభయన్ సర్వాచ్చయాతు ధాన్యః. అసభ్యస్తామ్రో అరుణ ఉత బభ్రుత్సు మంగళః. యే చేవాగుం రుద్రా అభిదో దిక్షుశ్రితాః సగత్రశో వైశాగుం హేడ ఈమహే. అసభ్యో వసర్పతి నీలగ్రీవో విలోహితః. ఉతైనం గోపా అదృశన్నదృశన్నుతహార్యః. ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః. నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీదుషేకే. అధోగే అస్య సత్వానోహం తేభ్యో గరన్ నమః. ప్రముంచ ధన్వనత్వముభయోరాత్నియోర్జ్యా. యాశ్చ తే హస్త ఇషవపరాతా భగవో వపా. అవతత్య ధనుస్త్వగుం సకత్రాక్షశతేషు ధే. నిషేధ్య చల్యాణా ముఖా శివోన సుమనాభవ. విజ్యం ధను కపర్దినో విశల్యో బాణవాగుం ఉత. అనేశన్నస్యేషవ ఆభురస్య నిశం గదిః. యాతేఖే దర్మీడుట్ట మహస్తే బభూవతే ధనుః. తయాత్మాన్విశ్వతత్వమయక్ష్మయా పరిభుజ. నమస్తే అత్వాయుధాయానాతతాయ ధృష్ణవేకే. ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే. పరితే ధన్వనోఖేతిరస్మాన్ వృణక్తు విశ్వతః. అథో యగిషుధిస్తవారే అస్మన్నిధేహితం. నమస్తే అస్తు భగవన్విశ్వేశ్వరాయ మహాదేవాయ త్రింబకాయ త్రిపురాంధకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యపాపేసే నాగ్నే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః. సత్పించగాయత్విషేమతే పదేనాం పతయే నమో నమో. బబ్లుషాయ వివ్యాధినేన్నానాం పతయే నమో నమో. హరికేశాయోపవేదినే పుట్టానాం పతయే నమో నమో. భవస్య హేత్యే జగదాం పతయే నమో నమో. రుద్రాయాతతావినే క్షేత్రాణాం పతయే నమో నమః. సూతాయ హంత్యాయ వనానాం పతయే నమో నమో. రోహితాయ తపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువంతయే వారివస్కృతాయ ఔషధీనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ. కృత్స్నవేతాయ ధావతే సత్వనాం పతయే నమః. నమస్తగమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ. ककुभाग निशंगिणे के स्तेनानां पतये नमो नमो. निशंगिण गिषुधिमते तत्कराणां पतये नमो नमो. वंचते परिवंचते सायूनां पतये नमो नमो. निचेरवे परिचरायारण्यानां पतये नमो नम. శృగావిభ్యో జిగాగుం సద్భ్యో ముష్ణతాం పతయే నమో నమో. సిమద్భ్యో నక్తం చరద్భ్య ప్రకృంతానాం పతయే నమో నమ. ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ. గిషుమద్భ్యో ధన్వావిభ్యో వ్యశ్చవో నమో నమ. ఆతన్వానేభ్య ప్రదిదధానేభ్యశ్చవో నమో నమ. ఆగచ్చద్భ్యో విసృజద్భ్యశ్చవో నమో. నమోస్యద్భ్యో విద్యద్భ్యశ్చవో నమో నమ. ఆసీనేభ్య చయానేభ్యశ్చవో నమో నమ. స్వపద్భ్యో జాగ్రద్భ్యశ్చవో నమో నమ. తిష్టద్భ్యో ధావద్భ్యశ్చవో నమో నమ. సభాభ్య సభాపతిభ్యశ్చవో నమో నమో. అశ్వేభ్యో స్వపదిభ్యశ్చవో నమః. నమ ఆవ్యాధినీకేభ్యో వివిద్యంతేభ్యశ్చవో నమో నమ. ఉగణాభ్య త్రిగుంహతేభ్యశ్చవో నమో నమో. కృత్సేభ్యో కృత్సపతిభ్యశ్చవో నమో నమో. ప్రాతేభ్యో వ్రాతపతిభ్యశ్చవో నమో నమో. గణేభ్యో గణపతిభ్యశ్చవో నమో నమో. విరూపేభ్యో విశ్వరూపేభ్యశ్చవో నమో నమో. మహద్భ్యః తుల్లకేభ్యశ్చవో నమో నమో. రథిభ్యో రథేభ్యశ్చవో నమో నమో. రథేకేభ్యో రథపదిభ్యశ్చవో నమో నమ. సేనాభ్యసేనానిభ్యశ్చవో Chavo namo namaha. Kshatrabhyasangrahetrabhyascha namo nama takshadbhyoradakarebhyascha namo nama kulalebhya karmarebhyascha namo nama punjishtebhyo nishadebhyascha namo nama kishukradbhyo dhanvakradbhyascha namo namo mrgayubhya Shwanibhyascha vo namo nama Shwabhyascha
vo namaha Namo bhavaya cha rudraya cha
Namah sharvaya cha pashupataye cha Namo neelagrivaya cha Chitikandhaya cha Namah kapardine cha Yuktakeshaya cha Namah Sahasrakshaya cha Shatadhanvane cha Namo Girishaya cha Shipivishtaya cha Namo Medushtamaya cha Shumate cha Namo Hraswaya cha Vamanaya cha Namo Brihate cha Varshiyase cha Namo Vriddhaya cha Samvridhvane cha Namo Agriyaya cha Pradhamaya cha nama Ashave cha Jiraya cha nama Shigriyaya cha Shibhyaya cha nama Orbhyaya cha Vatsunyaya cha nama Trutatyaya cha Dvipyaya cha Namo Jeshtaya cha Kanishtaya cha nama Purvajaya cha Parajaya cha namo Madhyamaya cha Pagalbhaya cha namo Jaganyaya cha Buddhayaya cha namo Sobhyaya cha Pratisadhyaya cha namo Gyamyaya cha Kshemyaya cha namo Urvadhyaya cha Khalyaya cha namo Shlokyaya cha Vasanyaya cha namo Vanyaya cha Kakshyaya cha namo Shravaya cha Pradishravaya cha namo Ashushenaya cha Ashuradhaya cha namo Shuraya cha Vavindate cha namo Varmine cha Varudhine cha namo Bilmine cha Kavachine cha namo Shrutaya cha Shrutasenaya cha namo Dundabhyaya cha Gananyaya cha namo Drishnaveja Pramrishaya cha namo Dutaya cha Prakhitaya cha namo Nishangine cha Chudhimate cha namo Teshne cha Vecha Yudhine cha namo Swayudaya cha Sudhanvane cha namo Shrutyaya cha Patyaya cha namo Katyaya cha Nipyaya cha namo Sudhyaya cha Saratyaya cha namo Nadyaya cha Vaishamtaya cha namo Kopyaya cha Vatyaya cha namo Vashyaya cha Vashyaya cha namo Meghyaya cha Vidyutyaya cha namo Idriyaya cha Tap Yagya janamo Vatyagya jareshmiyagya janamo Vattavyagya javattupagya jam Om Hara 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 Om Namat Somagya jarudragya janamo Tamragya charunagya janamo Shangaya cha Pashupataye cha nama Ugraya cha Bhimaya cha nama Agre Vadhaya cha Dure Vadhaya cha nama Hantre cha Haniyase cha nama Vrikshebhyo Harikeshebhyo nama Taraya nama Chambhave cha Mayobhave cha nama Shankaraya cha Mayas Karagya cha nama Chivagya cha Chivataragya cha nama Tirthyagya cha Kodyagya cha nama Padyagya ca nama Pratarnagya chottaranagya ca nama Atadyagya ca ladyagya ca nama Shashpyagya ca bhenyagya ca nama Sikatyagya ca pravakyagya ca Nama girinyagya ca prapat Yagya janama, kegum shilagya jakshaganagya janama, kapardine japulatage janamo goshtyagya jagre, yagya janama, stalpyagya jage, kyagya janama, katyagya jagahwareshtagya janamo, hridayagya janiveshtyagya janama, Pagum tapyagya jarajatyagya janama Shushyagya jaharityagya janamo Lopyagya jolapyagya janama Orpyagya jasormyagya janama Parnyagya japarnachadyagya janamo Paguramanagya jabhignate janama Akhidate japa Prakhidate janamo vat kirike bhyo devanagum hridaye bhyo namo vichinake bhyo namo vichinvatke bhyo nama anirhate bhyo nama ami vatke bhyah drape andhasaspade daridranilalokita Esham purushanam, esham pashunam, ma bhir maro mokesham kinchanamamate, yate rudra shiva tanu shiva vishwaka bheshaji, shiva rudratya bheshaji tayano mrida jivaseke, imagum rudraya tavaseka paddineke, chayadvira Yagya prabaramahe madhyam yatha nashyama sadvipate chatushpate vishvam pushtangrame asminnanaturam pridano rudro tano magyaskritikshayadviragya namasa vidhemate yachyam chayoscham anuragya jepidata dasyamatava rudra pranito Mano mahanta mutamano arbhagam mana ukshanta mutamana ukshitam Mano vadhe pitaram motamataram priyamana tanuvorudraririshah Manasto ketanage mana agyushi mano goshu mano ashveshuririshah Viran mano rudrabhamito vadir havishmanto namasa vidhemate Arate gognamudaburu shagne shayadviragyasum namasmete astu Rakshajano adijadeva brukhyathajana sharmayachadvivaruha Suhi srutangartta satam yuvanam mruganna bhimamubahatrumugram Mridajaridre rudrattavano anyande atmannivapandu sena Parino rudrasya heta pranaktu paritveshasya durmadiraghayo Avastira bhagavad vyastanushtvamidvattokagyatanagyagya mridagya Midhushtamashivatamashivona sumanabhava Parame vriksha ayudhan nidhagya krityam vasanamacharapinakam vibhradagahe Vikiridavilokita namaste astu bhagavaha Yaste sahasragum hedayonyamasmanivapanduta Sahasrani sahasradabhakubottavahetayah Tasamishano bhagavapparachena mukhagrate Sahasrani sahasrashoge rudra adibhumyam ತೇಷಾಗುಂಸಕತ್ರಯೋಜನೆ ಬಧನ್ವಾನಿ ತನ್ಮಸೇ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ನವೇ ಎಂತರಿಕ್ಷೆ ಭವಾ ಅಧೇ ನೀಲಗ್ರೀವಾ ಶಿತಿಕಂಠಾ ಶರ್ವಾ ಅಧಃ ಕ್ಷಮಾಚರಾಃ ನೀಲಗ್ರೀವಾ ಶಿತಿಕಂಠಾದಿವಗುಂ ರುದ್ರಾ ಉಪಸ್ಥಿತಾಃ ಯೇ ವೃಕ್ಷೇಷು ಸತ್ಪಿಂಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಗಾಸ ಕಪರ್ದಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿವಿಧ್ಯಂತಿ ಪಾತ್ರೇಷು ಪಿಪದೋ ಜನಾನ್ ಯೇ ಪಧಾಂ ಪದಿರಕ್ಷಯ ಐಲ ಪ್ರಜಾಯವ್ಯುಧಃ ಯೇ ತೀರ್ಥಾನಿ ಪ್ರಜರಂದಿ ಸೃಗಾವಂತೋ ನಿಷಂಗಿಣಃ ಯ ಏತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ಥಿರೇ ತೇಷಾಗುಂಸಹಸ್ರಯೋಜನೆ ವಧನ್ವಾನಿ ತನ್ಮಸೇ ನಮೋ ರುದ್ರೇಭ್ಯೋಗೇ ಪೃಥಿವ್ಯಾಂ ಗೇಂದರಿಕ್ಷೇಗೇ ದಿವಿಗೇ ಶಾವನ್ನ ಪಾತೋ ವರುಷಮಿಷವ ತೇಭ್ಯೋ ದಶ ಪ್ರಾಜೇರ್ದಶ ದಕ್ಷಿಣಾದಶ ಪ್ರದೇಚೇರ್ದಶೋ ದೇಚೇರ್ದಶೋರ್ಧ್ವಾತ್ತೇಭ್ಯೋ ನಮಃ ತೇನೋ ಮೃಡಯಂತು ತೇಯಂ ದಿಷ್ಮೋ ಯಶ್ಚ ನೋ ದ್ವೇಷ್ಟಿತಂ ವೋ ಜಂಭೇ ದಧಾಮಿ ತ್ರ್ಯಂಬಕಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ
ಉರ್ವಾರುಕಮಿವ ವಂದನಾನ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷೇಯಮಾಮೃತಾತ್
ಯೋ ರುದ್ರೋ ಅಗ್ನವ್ಯೋ ಅಪ್ತು ಯ ಓಷಧೇಶು ಯೋ ರುದ್ರೋ ವಿಶ್ವ ಭುವನಾ ವಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೇ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋ ಮರ್ತ್ಯಾಯ ಹಂತವೇ ತಾನ್ ವ್ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವ ಯಜಾಮಹೇ ಮೃತ್ಯವೇತ್ ಸ್ವಾಹಾ ಮೃತ್ಯವೇತ್ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ತೇನಾನ್ಯೇನ ಆಪ್ಯಾಯಸ್ವ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮುಷ್ಟು ಹಿಯಸ್ಸು ಧನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ಭೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ಬಿರ್ದೇವಮಸುರನ್ವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನಯಂ ಮೇ ಭಗವತ್ತರಃ ಅಯಂ ಮೇ ವಿಶ್ವಭೇಷಜೋಯಗು ಶಿವಾಭಿಮರುಷಣಃ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಅಗ್ನಾ ವಿಷ್ಣೋ ಸಜೋಷಸೇ ಮಾ ವರ್ಧಂತು ವಾಂಗಿರಃ
ಯುಮ್ನೈರಾಜೇ ಭಿರಾಗತಂ ವಾಜಶ್ಚ ಮೇ ಪ್ರಸವಶ್ಚ ಮೇ ಪ್ರಯತಿಶ್ಚ ಮೇ ಪ್ರಸಿತಿಶ್ಚ ಮೇ ಧೀತಿಶ್ಚ ಮೇ ಕ್ರತುಶ್ಚ ಮೇ ಸ್ವರಶ್ಚ ಮೇ ಶ್ಲೋಕಶ್ಚ ಮೇ ಶ್ರಾವಶ್ಚ ಮೇ ಶ್ರುತಿಶ್ಚ ಮೇ ಜ್ಯೋತಿಶ್ಚ ಮೇ ಸುವಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಪಾನಶ್ಚ ಮೇ ಜ್ಞಾನಶ್ಚ ಮೇ ಸುಶ್ಚ ಮೇ ಚಿತ್ತಂ ಚ ಮ ಆಧೀತಂ ಚ ಮೇ ವಾಕ್ಚ ಮೇ ಮನಶ್ಚ ಮೇ ಚಕ್ಷುಶ್ಚ ಮೇ ಶ್ರೋತ್ರಂ ಚ ಮೇ ದಕ್ಷಶ್ಚ ಮೇ ಬಲಂ ಚ ಮ ಓಜಶ್ಚ ಮೇ ಸಹಶ್ಚ ಮ ಆಯುಶ್ಚ ಮೇ ಜರಾ ಚ ಮ ಆತ್ಮಾ ಚ ಮೇ ತನೋಶ್ಚ ಮೇ ಶರ್ಮ ಚ ಮೇ ವರ್ಮ ಚ ಮೇ ಗಾನಿ ಚ ಮೇ ಸ್ಥಾನಿ ಚ ಮೇ ಪರೋಗುಂಸಿ ಚ ಮೇ ಶರೀರಾನಿ ಚ ಮೇ ಜೈಷ್ಠ್ಯಂ ಚ ಮ ಆಧಿಪತ್ಯಂ ಚ ಮೇ ಮನ್ಯುಶ್ಚ ಮೇ ಭಾಮಶ್ಚ ಮೇ ಮಶ್ಚ ಮೇ ಭಶ್ಚ ಮೇ ಜೇಮಾ ಚ ಮೇ ಮಹಿಮಾ ಚ ಮೇ ವರಿಮಾ ಚ ಮೇ ಪ್ರತಿಮಾ ಚ ಮೇ ವರ್ಷ್ಮಾ ಚ ಮೇ ತ್ರಾಗುಯಾ ಚ ಮೇ ವೃದ್ಧಂ ಚ ಮೇ ವೃದ್ಧಿಶ್ಚ ಮೇ ಸತ್ಯಂ ಚ ಮೇ ಶ್ರದ್ಧಾ ಚ ಮೇ ಜಗತ್ ಚ ಮೇ ಧನಂ ಚ ಮೇ ವಶಶ್ಚ ಮೇ ತ್ವಿಶಶ್ಚ ಮೇ ಕ್ರೀಡಾ ಚ ಮೇ ಮೋದಶ್ಚ ಮೇ ಜಾತಂ ಚ ಮೇ ಜನಿಷ್ಯಮಾನಂ ಚ ಮೇ ಸೂಕ್ತಂ ಚ ಮೇ ಸುಕೃತಂ ಚ ಮೇ ವಿತ್ತಂ ಚ ಮೇ ವೇದ್ಯಂ ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭವಿಷ್ಯಚ್ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಸುಪತಂ ಚ ಮರುದ್ಧಂ ಚ ಮರುದ್ಧಿಶ್ಚ ಮೇ ಕ್ಲುಪ್ತಂ ಚ ಮೇ ಕ್ಲುಪ್ತಿಶ್ಚ ಮೇ ಮತಿಶ್ಚ ಮೇ ಸುಮತಿಶ್ಚ ಮೇ ಶರಂ ಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೋಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಣಂ ಚ ಮೇ ಯಂತಾ ಚ ಮೇ ಧರ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಚ್ಚ ಮೇ ಜ್ಞಾತ್ರಂ ಚ ಮೇ ಸೋಶ್ಚ ಮೇ ಪ್ರಸೋಶ್ಚ ಮೇ ಸೇರಂ ಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂ ಚ ಮೇ ಮೃತಂ ಚ ಮೇ ಯಕ್ಷ್ವಂ ಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇ ನ ಮಿತ್ರಂ ಚ ಮೇ ಭಯಂ ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಶಯನಂ ಚ ಮೇ ಸೋಷಾ ಚ ಮೇ ಸುದಿನಂ ಚ ಮೇ ಓರ್ಚ ಮೇ ಸೋನೃತಾ ಚ ಮೇ ಪಯಶ್ಚ ಮೇ ರಸಶ್ಚ ಮೇ ಘೃತಂ ಚ ಮೇ ಮಧು ಚ ಮೇ ಸಗ್ಧಿಶ್ಚ ಮೇ ಸಪೀತಿಶ್ಚ ಮೇ ಕೃಷಿಶ್ಚ ಮೇ ವೃಷ್ಟಿಶ್ಚ ಮೇ ಚೈತ್ರಂ ಚ ಮೌದ್ಭಿದ್ಯಂ ಚ ಮೇ ರಯಶ್ಚ ಮೇ ರಾಯಶ್ಚ ಮೇ ಪುಷ್ಟಂ ಚ ಮೇ ಪುಷ್ಟಿಶ್ಚ ಮೇ ವಿಭು ಚ ಮೇ ಪ್ರಭು ಚ ಮೇ ಬಹು ಚ ಮೇ ಭೂಯಶ್ಚ ಮೇ ಪೂರ್ಣಂ ಚ ಮೇ ಪೂರ್ಣತರಂ ಚ ಮೇ ಕ್ಷಿತಿಶ್ಚ ಮೇ ಕೂಯವಾಶ್ಚ ಮೇನಂ ಚ ಮೇ ಸ್ವಚ್ಚ ಮೇ ದೇಹಯಶ್ಚ ಮೇ ಯವಾಶ್ಚ ಮೇ ಮಾಶಾಶ್ಚ ಮೇ ತಿಲಾಶ್ಚ ಮೇ ಮುದ್ದಾಶ್ಚ ಮೇ ಕಲ್ವಾಶ್ಚ ಮೇ ಗೋಧೂಮಾಶ್ಚ ಮೇ ಮಸುರಾಶ್ಚ ಮೇ ಪ್ರಿಯಂಗವಶ್ಚ ಮೇ ನವಶ್ಚ ಮೇ ಶ್ಯಾಮಕಾಶ್ಚ ಮೇ ನಿವಾರಾಶ್ಚ ಮೇ ಅಶ್ವಾಶ್ಚ ಮೇ ಮೃತ್ತಿಕಾಶ್ಚ ಮೇ ಗಿರಯಶ್ಚ ಮೇ ಪರ್ವತಾಶ್ಚ ಮೇ ಸಿಕತಾಶ್ಚ ಮೇ ವನಸ್ಪತಯಶ್ಚ ಮೇ ಹಿರಣ್ಯಂ ಚ ಮೇ ಯಶ್ಚ ಮೇ ಸೀಸಂ ಚ ಮೇ ತ್ರಪುಶ್ಚ ಮೇ ಶ್ಯಾಮಂ ಚ ಮೇ ಲೋಹಂ ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಆಪಶ್ಚ ಮೇ ವಿರುಧಶ್ಚ ಮ ಔಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಣಪಚ್ಯಂ ಚ ಮೇ ಕೃಷ್ಣಪಚ್ಯಂ ಚ ಮೇ ಗ್ರಾಮ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಆರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಂ ವಿತ್ತಂ ಚ ಮೇ ವಿತ್ತಿಶ್ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸು ಚ ಮೇ ವಸತಿಶ್ಚ ಮೇ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮೇ ಅರ್ಥಶ್ಚ ಮಹೇಮಶ್ಚ ಮಹಿತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತಿ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪೂಷಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಷ್ಣುಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಶ್ವಿಳೌ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮರುತಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಶ್ವೇ ಚ ಮೇ ದೇವಾ ಇಂದ್ರಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇಂತರಿಕ್ಷಂ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದಿಶಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮೂರ್ಧಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪ್ರಜಾಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ अगुंसुश्च मेदश्मिश्च मेदाभ्यश्च मेधिपतिश्च महुपागुंसुश्च मेऽन्तर्यामश्च मैन्द्रवायवश्च मे मैत्रावरुणश्च माश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च माग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मेतिग्राह्याश्च ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च मादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे विद्मश्च मे बर्हिश्च मे वेदिश्च मे दृष्टयाश्च मे सुजश्च मे चमसाश्च मे क्रामाणश्च मे स्वरवश्च म उपरवाश्च मे द्विषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतवृच्च म आधवनीयश्च म आग्नेर्दम् च मे हविर्दानम् च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे कर्मश्च मेऽर्कश्च मे सौर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे धृतिश्च मे धृतिश्च मे द्यौश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्दरन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौहि च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहि च मे पष्टवाच्च मे पष्टौहि च म उक्षा च मे वशा च मरुषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रैर्यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसदिश्च मे त्रयोविगुंसदिश्च मे पञ्चविगुंसदिश्च मे सप्तविगुंसदिश्च मे नवविगुंसदिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मे ष्टौ च मे द्वादश च मे षोडश च मे विगुंसदिश्च मे चतुर्विगुंसदिश्च मे ष्टाविगुंसदिश्च मे द्वात्रिगुंसच्च मे षट्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुं सच्च मेष्टा चत्वारिगुं सच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च बोद्धा च व्यस्तेयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानिषगुंसि षद्विश्वे देवासोर्तवाच पृथिवीवातर्मावाहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छयो रावृणीमहे गादै यज्ञाय गातु यज्ञपतये दये स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येशानः यदन्नेनातिरोहति एतावानस्य महिमा अतो जायागस्य पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्व उदैत्पुरुषः पादोऽस्येहा भवात्पुनः ततो विश्वम् विक्रामत् साशनानशने अभि तस्माद्विराजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म हिद्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अभग्नम् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रदः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्मात् यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् पशुगुस्तागुश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये तस्मात् यज्ञात् सर्वहुतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मात् जायत तस्मादश्वा अजायन्त एके चो भयादतः गावो अजग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कदिदाव्यकल्पयन् मुखम् किमस्य कौ बाहु कावुरुपादावुच्येते ब्राह्मणो अस्य मुखमासीत् बाहुराजन्यकृतः ऊरु तदस्य यद्वैश्यः पद्यागुं शूद्र अजायत चंद्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोऽद्य समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशस्य तस्रः तमेवम् विद्वानमृत इय भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि दर्वाणि प्रथमान्यासन् ते हनाकम् महिमानस्य सन्ते यत्र पूर्वे साध्याः सन्ति देवाः अभ्यस्सम्भूत पृथिव्येन सा च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदामेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृतय भवति नान्यः पन्था विद्यते अनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मनो विद्यात् तस्य देवा असन्वशे रेष्यते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति 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 ॐ त्रिणात्वा क्रिमे हन्मे कन्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः क्रिमीनागुम् राजा अप्येषागुस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो शुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेता विश्वः सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत् सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्मसि ॐ शान्ति शान्ति शान्तिः
ॐ सहनाभवतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ब्रह्मविदाप्नोति परम् तदेशाभ्युक्त सत्यम् ज्ञानमनन्तम् ब्रह्म यो वेदनिहितम् गुहायाम् परमेव्यो मन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते ते तस्माद्वागेतस्मादात्मन आकाशसम्भूतः आकाशात् वायुः वायोरग्निः अग्नेरापः अद्व्यपृथिवी पृथिव्या ओषधयः ओषधीभ्योऽन्नम् अन्नात् पुरुषः सवाये च पुरुषोऽन्नरसमयः तस्येदमेव शिरः अयम् दक्षिणपक्षः अयमुत्तरपक्षः अयमात्मा इदम् बुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति अन्नाद्वै प्रजा प्रजायन्ते याक्काश्च पृथिवी गुच्छ्रिताः अधो अन्नेनैव जीवन्ते अधैनदपि गन्त्यम् तदः अन्नगुंहि भूतानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते सर्वम् वैतेऽन्नमाप्नुवन्ति येऽन्नम् ब्रह्मोपासते अन्नगुंहि भूतानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते अन्नाद्भूतानि जायन्ते जातान्यन्नेन वर्धन्ते अद्यते त्यज भूतानि तस्मादन्नम् ददुच्यदगिते तस्माद्वागे तस्मादन्नरसमयात् अन्योन्तर आत्मा प्राणमयः तेनैष पूर्णः स वागेश पुरुषविदगेव तस्य पुरुषविदता अन्वयम् पुरुषविदः तस्य प्राणगेव शिरः यानो दक्षिणपक्षः अपानमुत्तरपक्षः आकाश आत्मा पृथिवीबुच्छम् प्रदिष्टा तदप्येष श्लोको भवते प्राणम् देवा अनुप्राणन्ते मनुष्या पशवच्चये प्राणो हि भूतानामायुः तस्मात् सर्वायुषमुच्यते सर्वमेव त आयुर्यन्ते ये प्राणम् ब्रह्मोपासते प्राणो हि भूतानामायुः तस्मात् सर्वायुषमुच्यत गिते तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वागे तस्मात् प्राणमयात् अन्योन्तर आत्मा मनोमयः
तेनैष पूर्णः
सवागेश पुरुषविदगेव तस्य पुरुषविदता अन्वयम् पुरुषविदः तस्य यजुरेव शिरः ऋग्दक्षिणपक्षः सामोत्तरपक्षः आदेश आत्मा अधर्वाङ्गिरसपुच्छम् प्रदिष्ठा तदप्येतत् श्लोको भवते यतो वाचो निवर्तन्ते
अप्राप्य मनसा सह
आनन्दम् ब्रह्मणो विद्वान् न बिभेति कदाचनेते तस्यैषगेव शारीर आत्मा यः पूर्वस्य तस्माद्वागेदस्मान्मनोमयात् अन्योन्तर आत्मा विज्ञानमयः तेनैष पूर्णः सवागेश पुरुषविदगेव तस्य पुरुषविधता अन्वयम् पुरुषविदः तस्य श्रद्धैव शिरः ऋतम् दक्षिणपक्षः सत्यमुत्तरपक्षः योग आत्मा महत्पुच्छम् प्रदिष्टा तदप्येष श्लोको भवते विज्ञानम् यज्ञम् तनुते कर्माणि तनुतेऽपि च विज्ञानम् देवात् सर्वे ब्रह्मज्येष्ठमुपासते विज्ञानम् ब्रह्म चेद्वेत तस्माच्चेन्न प्रमाद्यते शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुत इति तस्यैषगेव शारीर आत्मा यः पूर्वत्य तस्माद्वागेदस्माद् विज्ञानमयात् अन्योन्तर आत्मानन्दमयः तेनैष पूर्णः सवागेश पुरुषविदगेव तस्य पुरुषविदता अन्वयम् पुरुषविदः तस्य प्रियमेव शिरः मोदो दक्षिणपक्षः प्रमोद उत्तरपक्षः आनन्द आत्मा ब्रह्मपुच्छम् प्रदिष्टा तदप्येष श्लोको भवते असन्नेव स भवते असद्ब्रह्मेति वेद चेद् अस्ति ब्रह्मेति चेद्वेद सन्तमेनन्ततो विदुरुते तस्यैषगेव शारीर आत्मा यः पूर्वस्य अधातोऽनुप्रश्नाः उता विद्वानमुम् लोकम् प्रेत्य कश्चन गच्छति आहो विद्वानमुम् लोकम् प्रेत्य कश्चित् समश्नुता ओ शोकामयता बहुस्याम् प्रजा गेगेते सतपोतप्यता सतपस्तप्त्वा इदगुम् सर्वमसृजत यदिदम् किञ्च तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चत्यच्चाभवत् निरुक्तम् च निरुक्तम् च निलगनम् च निलगनम् च विज्ञानम् च विज्ञानम् च सत्यम् च नृतम् च सत्यमभवत् यदिदम् किञ्च तत्सत्यमित्याचक्षते तदप्येष श्लोको भवते असद्वागिदमग्र आसीत् ततो वै सतजायत तदात्मानग्रः स्वयमकुरुत तस्मात् तत्सुकृतमुच्यत इति यद्वै तत्सुकृतम् रसो वै सः रसगुह्येवायम् लब्ध्वानन्दे भवते कोच्येवान्यार्कप्राण्यात् यदेष आकाश आनन्दो न स्यात् एषक्येवानन्दयाते यदाख्ये वैषके दत्स्मिन्न दृश्ये नात्मे निरुक्ते निलगने भयम् प्रदिष्टा विन्दते अदसो भयङ्गतो भवते यदाख्ये वैषके दस्मिन्नदमन्तरम् कुरुते अध तस्य भयम् भवते तत्त्वेव भयम् विदुषो मन्वानस्य तदप्येषश्लोको भवते भेषात्मात्वा तप्पवते भेषो देति सूर्यः भेषात्मादग्निश्चेन्द्रस्य मृत्युर्धावति पञ्चमगिते शैषानन्दस्य मीमागुंसा भवते युवात्स्यात् साधु युवाध्यायकः आशिष्टो दृढिष्ठो बलिष्ठः तस्येयम् मृदिवे सर्वा मित्रस्य पूर्णा स्यात् स एको मानुष आनन्दः ते गे शतम् मानुषा आनन्दाः स एको मनुष्य गन्धर्वाणामानन्दः श्रोत्रियस्य जाकामः तस्य ते गेशदम् मनुष्य गन्धर्वाणामानन्दाः स एको देव गन्धर्वाणामानन्दः श्रोत्रियस्य जाकामः तस्य ते गेशदम् देव गन्धर्वाणामानन्दाः स एकः पितृणाम् चिरलोकलोकानामानन्दः श्रोत्रियस्य जाकामः तस्य ते गेशतम् पितृणाम् चिरलोकलोकानामानन्दाः स एक आजानजानाम् देवानामानन्दः श्रोत्रियस्य जाकामः तस्य ते गेशतमाजानजानाम् देवानामानन्दाः स एकः कर्म देवानाम् देवानामानन्दः ये कर्मणा देवानपि यन्ते श्रोत्रियस्य जाकामः तस्य ते गेशदम् कर्म देवानाम् देवानामानन्दाः स एको देवानामानन्दः श्रोत्रियस्य जाकामः तस्य ते एषदम् देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य जाकामः तस्य ते एषदमिन्द्रस्यानन्दाः स एको बृहस्पतेरानन्दः श्रोत्रियस्य जाकामः तस्य ते एषदम् बृहस्पतेरानन्दाः स एकः प्रजापतेरानन्दः श्रोत्रियस्य जाकामः तस्य ते एषदम् प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य जाकामः तस्य स यस्यायम् पुरुषे यस्यासावादित्ये स एकः स यगेवम् विद् अस्मान्लोकात् प्रेत्य
एतमन्नमयमात्मानमुपसङ्क्रामति
एतम् प्राणमयमात्मानमुपसङ्क्रामति एतम् मनोमयमात्मानमुपसङ्क्रामति एतम् विज्ञानमयमात्मानमुपसङ्क्रामति एतमानन्दमयमात्मानमुपसङ्क्रामति तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्यमनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेदि कुतश्च नेति एदगुम् हवावन तपति किमहगुम् साधुना करवम् किमहम् पापमकरवमिति स गगेवम् विद्वानेते आत्मानग्रस्पृणुते उभे क्ये वैष एते आत्मा ಆತ್ಮನಗ್ಗ ಸ್ಪೃಣುತೆ ಯ ಏವಂ ವೇದ ಇತ್ಯುಪನಿಷತ್. ಸಹನಾಭವತು ಸಹನೌ ಭುನಕ್ತು ಸಹ ವೀರ್ಯಂ ಕರವಾವಹೈ ತೇಜಸ್ವಿನಾವಧೀತಮಸ್ತು ಮಾ ವಿದ್ವಿಷಾವಹೈ. ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ. ನ ಕರ್ಮಣಾ ನ ಪ್ರಜಯಾ ಧನೇನ ತ್ಯಾಗೇನೈಕೇನ ಮೃತತ್ವಮಾನಶುಃ ಪರೇಣ ನಾಕಂ ನಿಹಿತಂ ಗುಹಾಯಾಂ ವಿಭ್ರಾಜತೆ ತದ್ಯದಯೋ ವಿಶಂತೆ. ವೇದಾಂತ ವಿಜ್ಞಾನ ಸುನಿಶ್ಚಿತಾರ್ಥ ಸನ್ಯಾಸ ಯೋಗಾದ್ಯದಯ ಶುದ್ಧ ಸತ್ವಾಃ ತೇ ಬ್ರಹ್ಮಲೋಕೇತು ಪರಾಂತಕಾಲೇ ಪರಾಮೃತಾತ್ ಪರಿಮುಚ್ಯಂತಿ ಸರ್ವೇ. ದಕ್ರಂ ವಿಪಾಪಂ ಪರಮೇಷ್ಮಭೂತಂ ಯತ್ಪುಂಡರೀಕಂ ಪುರಮದ್ಯ ಸಗ್ಗಸ್ಥಂ ತತ್ರಾಪಿ ದಕ್ರಂ ಗಗನಂ ವಿಶೋಕ ತಸ್ಮಿನ್ ಯದಂತಸ್ತದುಪಾಸಿತವ್ಯಂ. ಯೋ ವೇದಾದೌ ಸ್ವರ ಪ್ರೋಕ್ತೋ ವೇದಾಂತೇಜ ಪ್ರತಿಷ್ಠಿತಃ ತಸ್ಯ ಪ್ರಗತಿಲೇನ ಸಯ ಪರಸ್ಸ ಮಹೇಶ್ವರಃ. ಸ್ವಸ್ತಿ ಪ್ರಜಾಭ್ಯ ಪರಿಪಾಲಯಂತಾಂ ನ್ಯಾಯೇನ ಮಾರ್ಗೇಣ ಮಹೀಂ ಮಹಿಷಾಃ. ಗೋಬ್ರಾಹ್ಮಣೇಭ್ಯಸ್ತುಭಮಸ್ತು ನಿತ್ಯಂ ಸಮಸ್ತಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು. ಸಮಸ್ತಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು. ಸಮಸ್ತಲೋಕಾಃ ಸುಖಿನೋ ಭವಂತು. ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿ.